महमश्रमम् अह्यस्य अपरम् जनजनसामराजेपदर्विश्वस्मादिन्द्रमुत्तरः नामिन्द्रानिरारणसख्यर्भृडागावेर्वृते यस्येदमप्यम् हविप्रियम् देवेषु गच्छति विश्वस्मादिन्द्रमुत्तरः ऋषागपादिरेव दिशुपुत्रादुशुश्नुषे गरत्त इन्द्रभुक्षणः प्रियङ्कादित्करम् कविर्विश्वस्मादिन्द्रमुत्तरः उष्णो हि मे पञ्चदश साकम् वदम् द्विविंशतिम् उदाहमद्निजीवयदुभागुक्षी प्रीणन्ति मे विश्वस्मादिन्द्रमुत्तरः ऋढलो न दिग्मलिङ्गोन्दर्योधेषुरोवदे मन्दस्त इन्द्रसंहृदे यन्ते सुमोति भावयुर्विश्वस्मादिन्द्र उत्तरः न शेषे यस्य रम्बादेन्दरासख्या कप्रेते सेधी शेयस्य रोमसंनिषेजुषोऽभिजृम्भते विश्वस्मादिन्द्र उत्तरः न शेषे यस्य रोमसंनिषेजुषोऽभिजृम्भते सेदी सेयस्य रम्भादेन्तरा सख्या आकभृद्विश्वस्मादिन्द्रगुत्तरः अजमिन्द्रमृडाकाभिः परस्वन्तम् हतम् वीदते असिम् सूरान्नवम् चरुमादेधस्य नाचीतम् विश्वस्मादिन्द्रगुत्तरः अजमेमि विचाकसद्विचिन्वन्दासमार्यम् विभाविभागचत्वा नोऽभिधीरमजाकशम् विश्वस्मादिन्द्रमुत्तरः धन्वचयत्क्रन्दत्रम् जगदिश्वित्ताभियोजना नेदीयसो मृषाकपेस्तमेभि गृहाङ्गुभविश्वस्मादिन्द्रमुत्तरः पुनरेहि मृषाकपेषु पिता कल्पयामहै येन स्वप्रणम् सनोऽस्तमेषि वथा पुनर्विश्वस्मादिन्द्रमुत्तरः यदुञ्जो वृडागपे गृहमिन्द्राजगन्दन क्वा अस्य पुल्बघो मृगः कमगञ्जनयोपानो विश्वस्मादिन्द्रमुत्तरः परिषुर्हनामानवी साकम् सासूपविंशतिम् भद्रम् भरत्यस्या अभोज्यस्या उदरमामायद्विश्वस्मादिन्द्रमुत्तरः रक्षोहरम् वाजिनमाजि घर्मिमित्रम् प्रथिष्ठमुपाजामि शर्म शिशानो अग्निक्रतो विश्वमिद्धस्व नो दिवासरिणः पादुरक्तम् अयोदाम् श्रो अर्जिषा यातु दानानुपस्पृशजातवेदस्वमिद्धः आदिह्वयामूलदेवान्द्रभस्वक्रव्यादो वृत्तबीधस्वासन् उभोभया भिन्नुपादेहितम् श्राहिंसरस्विशानो वादम् परम् च उदान्तरिक्षे परीयाहि राजन्तम् भैः सन्देह्यभियादुधानान् यज्ञैरुडो सन्नमानो अग्ने वाचा शल्याम् असमेभिर्दिहानः ताभिर्विद्यहृदये यादुधानान् प्रतीचो बाहोन् प्रतिभङ्घेषाम् अग्ने त्वजम् यादुधानस्य बिन्दिहिंसासनिर्भरसाहन्त्वेनम् प्रपर्वाणि यादवेदश्रिणीः क्रव्यात्प्रविष्णुर्विचीनोतु वृत्रम् यत्रेदानीम् पश्यसि जातवेदस्तिष्ठम् तमग्न उत वाचरन्तम् यद्वान्तरिक्षे पथिभिः पतन्तम् तमस्ताभिज्य सर्वाशिशानः उदालब्धम् श्रुणिः जातवेद आलेभानाभिर्जातुधानात् अग्ने पूर्वो निजहिशोचान आमादाक्षिङ्गास्तमदन्त्वेनीः नः प्रब्रूहि यतमस्सो अग्नेयो जातुधानो जयितम् कृणोति तमालभस्व समिधाय विष्टनिचक्षसश्चक्षुषे रन्धयैनम् तीक्ष्णेनाग्ने चक्षुषा रक्षयज्ञम् राञ्चम् वसुभ्यः प्रणय प्रचेतः हिंस्रम् रक्षांसभिसोऽसूदानम् मात्वा दभञ्जाधानाः चक्षः ऋषक्षारक्षः परीपस्य भिक्षुतस्य त्रीणि प्रतिसृणीह्यग्राः तस्याग्ने वृष्टेर्हरसा सृणीः त्रेधा मूलम् जातुधानस्य वृश्च त्रिर्या दुधान प्रसीदन्तये कृतम् यो अग्ने अमृते न हन्ति समर्चिषा स्फूर्जयम् जातवेदस्तमक्षमेनम् गृणतेन वृङ्गि तदग्ने चक्ष प्रतिधेहि लेभे स भारुजम् येन पश्यसि जातुधानम् अथर्ववज्योतिषा दैव्येन सत्यम् धूर्वन्द्रमजितन्योष यदग्ने अद्य मे चुनासपातो यद्वाचस्तृष्टम् जनयन्तरेभाः मन्योर्मनसः सरव्याजते यातया विध्यकृतये जातुधानान् परा शृणीहितपसा जातुधानान् परा अग्ने रक्षो हरसा शृणीः पराचिषा मूलदेवाच्छृणीः परा सुदृपो अभिशोसूदानः पराज्य देवावेदिनम् श्रेणम् त्वप्रत्यगेणम् सपथायम् दृष्टाः वाचास्तेणम् सरवरिच्छम् त्वमर्मन् विश्वस्यैकप्रसीतिम् जातुधानाः यः पौरुषेण क्रमिषा समन्ते यो अश्वेन पशुना जातुधानाः यो अज्ञाजाभरति क्षीरमग्ने तेषाम् शीर्षा निहरसाभिश्च संवत्सरीणम् प्रजा पुश्रिया यास्तस्य वासीद्यादुधानो मृदक्षः नीयोरामग्ने यदमस्त्रिदृत्सात्तम् प्रत्यम् च मत्तिषा विद्यमर्मन् विषङ्गवाम् यादधानापिबन्त्वा वृश्चन्तामदीतये दुरेवाः परीणाम् देवस्य विदधातु परा भागमूढधीनाम् जयन्ताम् सनादग्ने मृणसि यादुधानाम् नत्वा रक्षाम् शिवृतनासु जिज्ञुः अनुदः सहमूराम् कव्यादो माते हेत्यामुक्षत दैव्यायाः तन्नो अग्ने अधरादुदक्ता त्वम् पश्चादुतरक्षा पुरस्तात् प्रतिदेते अजरासस्तपिष्ठाघरम् संसोऽसु चतो दहन्तु पश्चात् पुरस्तादधरादुदत्तात् कविः काव्येन परीपाहि राजन् सखे सखायमजलो जलिम्नेऽग्ने मर्तामर्त्यस्त्वन्नाः परिपाग्ने पुरम् वयम् विप्रम् सरस्य धीमहि लिषद्वर्णम् दिवे दिवे हन्तारम् भङ्गुरावताम् विषेण भङ्गुरावदः प्रतिष्परक्षसोदः अग्ने दिग्मेन शोधिधातोरग्राभिर्वृष्टिभिः प्रत्यग्ने मिथुनादहया दधाना किमीदिना सन्त्वासिदामिजा गृह्यदब्धम् विप्रमन्माभिः प्रत्यग्ने हरसाहरश्रृणीः विश्वतः प्रति जातुधानस्य रक्षसो बलम् विरोज वीर्यम् अविष्पान्तमजलम् सर्वेति विस्पृश्याहूतम् दृष्टामग्नौ तस्य भर्माणे भुवनाय देवाधर्मानेकम् स्वधया पप्रथन्त कीर्णम् भुवनम् तमसा पगूढमाविश्वरभवज्जाते अग्नौ देवा पृथिवीद्यौ हृदा पौराणजन्नोषधीः सख्ये अस्य देवेभिर्वीडितो यज्ञयेभिरग्निम् स्तोषाङ्गजरम् बृहन्तम् यो भानुना पृथिवीञ्जामुदे मामाः तदा नरोदासी अन्तरिक्षम् यो होदासीत् प्रथमो देवजष्टोऽयम् समाञ्जन्नाद्येनावृणानाः त्रीत्वरम् स्थाजगद्यच्छात्रमग्निरागृणोज्जातवेदाः यज्जातवेदो भुवनस्य मूर्धन्नतिष्ठो अग्ने समलोचनेन तन्त्वा हेममतिभिर्गेर्भिरुक्तैः स यज्ञयो अभवो रोदसि प्राः मूर्धा भुवो भवति नक्ता भग्निस्ततः सूर्यो जायते प्रातरुद्यन् मायामूर्विज्ञानामेतामपोजत्तो निश्चरादिप्रजानन् निषेण्योजो मायिना समिद्धो रोचरदिवियो निर्विभावाः तस्मिन्नग्नौ सूक्तपाकेन देवाहविर्विश्वाजो हवस्तनूपाः सूक्तपाकम् प्राथमादिदग्निमादिग्धविराजनयन्त देवाः स येषाम् यज्ञो अभवस्तनूपास्तम् चौर्वेधतम् पृथिवीतमापाः देवासो जनयन्ताग्निम् यस्मिन्नाजोहवर्भुवानानि विश्वाः सो अद्युषा पृथिवीम् जामुदे मामृजूयमानो अतपन्महित्वा सो मे रहि दिवि देवासो अग्निमजीजनम् क्षत्रिभिरोदसि प्राम् तमोहगृण्वन्ेधा भुवेकम् सरोषधीः पतति विश्वरूपाः यदे रमदधुर्यज्ञियासो दिवि देवाः सूर्यमादिधेयम् यदा च विष्णो मिथुनामभूतामादित्रापश्यन् भुवनानि विश्वाः तिष्ठस्माग्निम् भुवनाय देवा वै स्वानरम् केतुमह्नामगृह्णन् आयस्तदा नो नसो विभातीरमो पूर्णोदितमो अर्चिषायन् वै स्वानरम् कवयो यज्ञियासोऽग्निम् देवा जनयन्न दुर्यम् नक्षत्रम् रत्रममीनश्च ऋष्णुयक्षस्याध्यक्षम् दभिषम् बृहन्तम् ईश्वानरम् विश्वादीजिवाम् सम्मन्त्रैरग्निम् कविमच्छावदामः यो माहिम्ना परिबभूगोर्वीरावस्तादुदेवः परस्ताद् मे श्रुति अशृणवम् विदेनामहम् देवानामुदमत्यानाम् ताभ्यामिदम् विश्वमे दत्समे द्वियदम् तरापितरम् मातरम् च द्वे समीचे बिभृतश्चरम् तम् शीर्षदो जातम् मनसा विमृष्टम् स प्रत्यम् विश्वाभुवरादितस्थापप्रायच्छम् तरनिर्भ्राजमानः यत्रापदे ते अपरः परश्च यज्ञन्योः कतरो नो विवेद आसे गुरित्सधमादम् सखा यो नक्षन्दयज्ञम् क इदम् विवोचत् कत्यग्नयः कति सूर्या सकत्युषा सकत्विस्विदामाः नोपस्मिजम् वक्पितरो वदामि पृच्छामि वः कवयो विद्मनेकम् यावन्मात्रमुषदो न प्रतीकम् सुपर्णो गोपसते मातरिश्वः आवद्दधात्युपयज्ञमायन् ब्राह्मणोः दुरवरो निषीदन् इन्द्रम् स्तपानृतमञ्जस्य मह्नावीव बाधे रोचना विद्मो अन्तान् आजः पप्रौ चर्षणि धृद्वरोभिः प्रसन्धुभ्यो निविचालो माहित्वा सदोर्यः पर्युरोवरांस्येन्द्रो ववृद्वाद्रच्छेव चक्रा अतिष्ठन्तमपस्या अन्नसर्गम् कृष्णादमाम् सेत्विष्या जघान समानमस्मा अनपावृतचक्ष्मया दिवो असमम् ब्रह्मणव्यम् यः पृष्ठे भजनीमान्यर्य इन्द्रश्चिका जनसखाय मीषे इन्द्रा जगिरो अनीषित सर्गा अपप्रेरयम् सकारस्य बुध्नात् यो अक्षेनेव जग्रिया सजीभिर्विश्वस्तस्तम्भ पृथिवीभुतद्याम् आपान्तमन्यत्रबलप्रभर्माधुनिश्रिमी वाञ्छरुमाङ्गृजीषि सोमो विश्वान्यदसावनानि नार्वागिन्द्रम् प्रतिमानानि देभुः नयस्यद्या वा पृथिवीन धन्वनान्तरिक्षम् नाद्रायः सोमो अक्षाः यदस्य मन्युराधनीयमानशृणादि वेलुरुजति स्थिराणि జఘానమృత్రం సుధీర్వణే వరోజపురో అనదన్న సింధూన్ విభేద గిరిన్నమిన్న కుంభమాగా ఇంద్రో అగృణద స్వయుగ్భిః త్వం హత్యత్రే నజాయం రధిరోధిర్న పర్వ విజినాశ్రీనాసి ప్రజే మిత్రస్య వరుణస్య ధామయుజం నజనా వినంతి మిత్రం ప్రజే మిత్రం రాజమనం దురేవా ప్రసంగిర ప్రవరుణం వినంతి జ్ఞా అమిత్రేషు పథమింద్రతుం బ్రమృషం మృషానమృషం శీశీ ఇంద్రో దివ ఇంద్ర ఈశే పృథివ్యా ఇంద్రో అపామింద్రయిత్పర్వతానా ఇంద్రో వృధామింద్రయిన్మే ధీరా నామింద్రాక్షే మే యోగే హవ్యయింద్రాభ్యయింద్ర ప్రభృధో అహభ్య ప్రాంతరిక్షాత్ ప్రసముద్రస్య దాసే ప్రపాదస్య ప్రసాస ప్రజ్మో అంతాన్ ప్రసంతుభ్యో నిజే ప్రక్షిణిభ్యః ప్రదోదోజత్యాగుణశోలకేతురసింవాదే వర్తతామింద్రహేతి అస్మే విద్య దివాశ్రీజానస్తపిష్టే నహేష సాద్రోఘమిత్రాన్ అన్వహవాసాన్యన్వోషధీరను పర్వదాస అన్వింద్రం రోదసీవసానే అన్వాపో అజిహత రాజమానం కలిహి శ్రిసాద ఇంద్రచేత్యాసదఘశయద్భినదో రక్షయేషత్ మిత్రక్రభో యచ్చ స నేన గావః పృథివ్యా ఆభృగముయాశయంతే శత్రూయంతో అభియేనస్తదస్రేమయుగ్రాధం తవో గణాస ఇంద్ర అంధేనామిత్రాస్తమసాసజంతాం సుజ్జ్యోతిషో అక్తభస్తాం అభిష్యోః కురు నిహిత్వాసవనాజనా బ్రహ్మాణి మందం గణతామృషీనా ఇమాఘోషన్నవసాసూతిం తిరో విశ్వాం అచ్చదోజాహ్యర్వాయమింద్రభుంజతీనా విద్యామసుమతీనాం నవానా విద్యామవస్తోరవసా ఘనంతో విశ్వామిత్ర ఉదత ఇంద్రనూనం సునం భూవేమఘవానమింద్రమస్మిన్భరే నృతమం రాజసాతౌ శృణ్వంతముగ్రమూదయే సమత్సఘ్నంతం వృత్రాణి సంజితం ధనానా సహస్రశీర్షా పురుషః సహస్రాక్షః సహస్రపాద్ స భూమిం విశ్వతో హృత్వాత్యతిష్టద్దశాంగులం పురోషయే వేదం సర్వం యద్భూతం యచ్చ భవ్యం పురామృతత్వస్యేషాయదన్నేనాతిరోహతి ఏతావానస్య మహిమాతోజ్యాయాంశ పురుష పాదోస్య విశ్వా భూతాని త్రిపాదస్యామృతం దివి త్రిపాదోర్ధ్వరుషః పాదోస్యేహభవత్పున తథో విష్ణం వ్యక్రామత్సాధనానశనే అధి తస్మాజాయత విరాజో అధిపూరుషః స జాతో అత్యరిచ్యత పశ్చాద్భూమిమసో పురః యత్పురుషేణ హవిషా దేవాధిజ్ఞమతం వత వసంతో అస్యాసీదాజ్ఞమిం గ్రీష్మయుద్భశ్వరద్ధవిః తం యజ్ఞం బలిషి ప్రోక్షం పురుషం జాతమగ్రదః తేన దేవా యజంత సాధ్యారిడాయస్తయే తస్మాజ్జ్ఞాత్ సర్వభూతః సంభృతం బృషదాజ్యం పశూంతాంశ్చక్రే వాయవ్యాహారణ్యాన్ గ్రామ్యాశ్చయే తస్మాజ్ఞాత్ సర్వభూతయః సామాని జగ్నిరే ఛందాంసి జగ్నిరే తస్మాద్యజస్తస్మాదజాయత తస్మాదశ్వాహ అజాయంత ఏకేచో భయాదదః గావో భజగ్గిరే తస్మాత్తస్మాజావజాః యత్పురుషం విదధః కతిధాం వ్యాకల్పయన్ मुखम् किमस्य कौ बाहू काभूरूपादाः उच्येते ब्राह्मणस्य मुखमासीत् बाहूराजन्यः कृतः ऊरोदरस्य यद्वैश्यः पद्भ्याम् शूद्रो अजायत चन्द्रमामनसो जातश्चक्षो सूर्यो अजायत मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत नाभ्या आसीदन्तरिक्षम् शीर्ष्णोद्यौ समावर्तत पद्भ्याम् भूमिर्दिशस्रोत्रात्तथा लोकाङ्गकल्पयन् सप्तास्यासन्वरिहत्रे सप्त सविधः कृताः देवायद्यज्ञन्तम् बाणामभद्रम् पुरुषम् वशम् यज्ञेन यज्ञमायजन्त देवास्तानि धर्माणि प्रथमान्यासन् देहनाकम् महिमानस्य चन्द्रयत्र पूर्वे साध्याः सन्ति देवाः सन्ध्याग्रमध्यर्जतमानयुध्यतेतमेतमूनायुधयम् निलस्पते विश्वस्य होता हविषोपरेण्यो विभुर्विभावा सुषखा सकीयते सदर्शन श्रीरजीजगृहे गृहे वने वने शिश्रिये तक्ववीरिव जनम् जनम् जन्यो नाति मन्यते विषाक्षेति विश्वो विषम् विषम् सुदक्षो रक्षैः क्रतो नादिशुक्रतुरग्ने कविः काव्ये नादिविश्ववित् सर्वसूनाम् क्षयसि त्वमेकयुज्या वा जनानि पृथिवी चमुष्यतः प्रजानग्नेतभजोनि मृत्विषमिलायास्मते घृतमन्तमासतः आदेति मित्रपुषसा विवेतयो नेपदः सूर्यस्येव रश्मयाः तपस्विनो वर्षस्येव विद्युतश्चित्रास्तिगित्रपुषसान्नकेतवाः यतोषधीरभिदृष्टोऽवनानि कपलि स्वयम् धीनुषे अन्नमास्ये तमोषधीर्दशिरे गर्भमृत्विजम् तमापो अग्निम् जनयन्तमातराः तमित्समानम् वनिनश्च वीरुधोऽन्तर्वतीश्च सुपते च विश्वः मातोपधूतयिषितोपसाङ्गनो दृषयदन्नामे विषद्विदिष्ठसे आदेयतम् ते रथ्यो यथा पृथक् श्रद्धाम् जज्ञे अजराणिषक्षतः मेधाकारम् विदधस्य प्रसाधनमग्निम् होतारम् परिभूतमम् मतिम् मानमित्तमिन्महेभेण तेनान्यन्वत् त्वामिदत्र वृणते त्वाजभोहोदारमग्ने विदधेषु वेधसाः यद्देवयम् तो दधति प्रजांसिते हविष्मन्तो मनवो वृत्तबलिगिणः तपाग्ने होत्रम् तव पोत्रमृत्विजम् तव नेष्ट्रम् त्वमग्निधृतायतः तव प्रशास्त्रम् त्वमध्वरीयसि ब्रह्मा दासि गृहपतिश्च नोदमे यस्तुभ्यामग्ने अमृताजमर्चः समिधादासवा हविष्कृति तस्य होता भवसि यासि दूत्या अमुपब्रूषे गतस्य ध्वरीयसि इमा अस्मै मतयो वाचो अस्मदाङ्गचो गिरस्वच्युतयः समग्मत सूर्यभोमस वेदातवेदसे वृद्धासु जिद्वर्धनो यासु चाकनत् इमाम् रत्नाय सुष्टुतिम् नवीयसीम् भोजे जामस्मापुषते शृणोतु नः भूयान्तरा हृद्यस्य निःस्पृशे जाये भवत्यपुषति सुभासाः यस्मिन्नस्वासर्षभास भुक्षणो भसा मेषावसृष्टा स आहूताः शीलालपे सोमवृष्टाय वेदसे हृतामतिम् जनये चारु भग्नये अभाव्यग्ने हविरास्येते सुजीव घृतम् संवीव सोमाः वाजसनिम् रजिमस्मे सुवीरम् प्रशस्तम् धेहि यशसम् बृहन्तम् यज्ञस्य भूरथ्यम् विस्पतिम् विशाम् भूतानमत्तोरतिथिम् विभावासुम् सोऽयम् चुष्टा सुभदीनेषु जद्भूरद्विषा चेतुर्यजतोद्यामसायन इमान्तस्पामुभये अकण्वत धर्माणामग्निम् विदधस्य साधनम् आत्मन्नयक्वमुरतः पुरोहितम् तनूनपादमरुडस्य निंसते वनस्य नीताभिपणेश्च मन्महे भजास्य प्रभूता सुरत्तवे यदा घोरासो अमृतत्वमासदादिज्जनस्य दैव्यस्य चर्किरन् ऋतस्य हि प्रसीदर्जौरुव्यतो नमो मह्यानिपणीयसि इन्द्रो मित्रो वरो नः सन्ति यद्वेधो भगस्य पिता भूतदक्षतः रुद्रेण जीनायन्ति सिन्धावस्तिरो महीमरमाजिन्दधन्विरे तेभिः परिज्ञापरियन्नुरुद्रयो विरोरुवज्जठरे विश्वमुक्षते प्राणारुद्रामृतो विश्वकृष्णयो दिवस्येनासो असूरस्य नीलयाः तेभिश्चष्टे वरुणो मित्रो यमेन्द्रो देवेभिरर्वसेभिरर्वसः इन्द्रे भुजम् दशमानास आसदसूनो ऋषीके वृषणश्च पुंसे ऋषेन्द्रस्यार्हणा तदक्षिणे युजम् वज्रम् दृषदानेषु कारवाः सूरस्थिता हरितो अश्वरेण मलिन्द्रादागस्तिभजते तवीयसः धीमस्य विष्णो जगराजभिस्वसो दिवे दिवे सहूरिस्तन्नबाधितः सोमम् वो अद्य रुद्राय दिक्पादे क्षयद्वीराय नमासादितिष्ठन येभिः शिवस्ववाङ्गे भयामभिर्दिवस्त्रिवजसानिकामभिः तेभिः प्रजाया अभरन्तविश्रवो बृहस्पतिर्वृषभः सोमजामयः सर्वा प्रथमो विधारयद्देवादक्षयेभ्यगावस्सन्तिरे ते गिद्या वा पृथिवी भूरिवेदसारदूरङ्गो यमोदीतिः देवस्त्वष्टार्द्रविनोदार्भुक्षणप्रलोदसी मरुतो विष्णोरर्हिरे उदस्यनामुर्भिया कविरहि शृणोत बुद्ध्यो कविमणि सूर्यामासा विचरम् दादिवीक्षितामीनहुरीवसवोधरम् प्रणः पूरासरथम् विश्वदेव्योपान्नपादवतु वायुवृष्टये आत्मानम् वस्यो अभिवादमचरश्विनासुभवायामनिःश्रुतम् विशामासामुखानामधिक्षितम् येभिरस्वजासनम् गृणीमसि नाभिर्विश्वाभिरतिमनर्वणमक्रोर्जुवानम्भ्रमणाधापतिम् प्रेमदत्र जनुषा पूर्वो अङ्गिराग्रावाणभूर्ध्वा अभिलक्षुरध्वरम् येभिर्विहाया अभवद्विलक्षणः पाथः सुमेकाम् सुधीर्वणन्वति महिद्या वा पृथिवी भूतमुर्वीणायी यस्मीनरोदसी सदम् नः देभिर्नः पादम् सख्य स देभिर्नः पादम् सौषणि यज्ञे यज्ञे समर्थो देवान् सवर्यति यः सुम्नैर्दीर्घः श्रुत्तमाविवासात्येनान् विश्वेषामिरज्जवो देवानाम् वाणः विश्वे यज्ञेषु यज्ञियाः ते घाराजानो अमृतस्य मन्त्राल्यमाभिद्रो वरुणः परिज्ञा करद्रुद्रो ऋणाम् सुतो मरुतः पूषणो भगाः उत नो नग्नमपाम्बेणन्वसूर्यामासा सदा नायस धन्या स जायत्साद्येषा महिर्बुद्धेणो बुद्ध्याः उतनो देवावश्विना सुरस्पतीधामभिर्मित्रावरुणावृषणाम् महस्य राजये क्षते धन्वे वर्विता उदना रुद्राजन्मृतामश्विना विश्वे देवासो रथस्पतिर्भगाः रिभर्वाचरुरक्षणः परिज्ञा विश्ववेदतः रिभर्भक्षा रिभर्वीधरो मदा देहनी जूजुबालस्य वादिनाः दुष्टरम् यस्य रामाधिरुधर्यज्ञो नमानूढः प्रधीनो अक्रयो देवसविदः सजस्तुते मघो नाम् सहो न इन्द्रो वह्नेभर्ण्येनाम् चर्वणीनाम् चक्रम् रश्मिन्नयो युवे ऐषुद्या वा पृथिवीघातम् मनदस्मे वीरेषु विश्वदर्शनिश्रवाः वृक्षम् राजस्य दातये वृक्षम् राजोदुर्वणे एतम् तम् दानिन्द्रास्मयष्टम् गोचित्सन्तम् सहतावन्नभिट्टाये सुतापाह्यभिट्टाये मेदरामेदरासो एतम् मे सोमम् धनानसूर्येर्धृतत्यामानम् वा वृधन्तृणाम् संवरणम् नाश्यम् दष्टे वानवच्युतम् वावर्तरेणाम् राजा युक्तैषाम् हिरण्ययी नेमधीतानवम् स्यावृथेवभिष्टान्ता प्रलद्दुश्रीमे वृथवाने वेरे प्ररामे वो जमसूरे भगवत्सु ये युक्ताय पञ्चशरवास्मयुपथा विश्राव्येणाम् अधीन्वत्र सप्ततिम् च सप्त च सद्योदिष्टान्वस्वद्योदिष्टपाच्योदिष्टवायवः त्रैदेव दन्तप्रभयम् वदामग्रामभ्यो वाचम् वदतावदभ्यः यदद्रयः पर्वताश्वाकमासवश्लोकम् घोषम् भरतेन्द्राय सोमिनः एतेव दन्ति सतवत्सहस्रावदभिक्रन्दन्ति हरितेऽभिरासभिः विष्वीग्रावारः सुकृतः सुकृत्य जाहोतश्चित्पूर्वेव विलद्यमासत एतेव सन्त्यवीदन्ननाम धन्योऽम् क्षयन्ते अधिपक्वामीषि वृक्षस्य साकामरुणस्य वत्सदस्ते सुभर्वा विषभा प्रेम रामिषु ऋणद्वदन्तिमधिनेन मन्दिरेन्द्रम् क्रोशम् तोऽभिदन्ननामधु सम्रद्ध्याधीरास्तुभिरणत्यघोषयम् तत्पृथिवीमो भक्तिभिः सुवर्णावादमक्रतो वद्यव्याः खरे कृष्णायुषिरानक्तिषुः ज्ञा अङ्गियन्तु परस्य निकृतमुरूरेतो दधिरे दूर्यस्मिताः उग्रायैव प्रवहन्तः समायमस्साकम् युक्ता मृडानो बिभ्रातो धुराः तच्छसन्तो जग्रदानारा विनशृण्वलेषाम् प्रोदतो अर्वतामिव दशावनेभ्यो दशा कक्ष्येभ्यो दशा योक्त्रेभ्यो दशा योजनेभ्यः दशाभीषुभ्यो अर्चताजरेभ्यो दशधुरो दशा युक्तावहद्भ्यः ते अत्र यो दशा यन्द्रास आसवस्तेषा माधानम् पर्येति हर्यतम् बभूषदस्य सोम्यस्यान्ध सोम्योऽप्ययूढम् प्रथमस्य भेजिरे ते सोमादो हरि इन्द्रस्य निंसतेम् संसुहन्तो अध्यासते कवि तेभिर्दुग्धम् प्रविवा सौम्यम् मध्विन्द्रो वर्धते प्रथते मृषायते मृषाभो अंसर्न किला ऋषाधनेलाभन्तस्तरविस्तरासीताः दैवत्येव महासाचारावस्थनयश्च ग्रावानो अजुषध्वमध्वरम् ृजिलासो अद्रायो श्रमणाश्रेजिता अमृत्यवः अनातुरा अजरास्तामाविष्णवस्तु पीवसो अदृषिता अदृष्णजः ध्रुवा एव वः पितरो युगे युगे क्षेमकामासस्तदासो न युञ्जते अजुर्यासो हरिणाचो हरिद्रभाद्याम् रवेण पृथिवीमासुश्रवः कतिद्वादन्त्यद्रायो विमोचने यामन्नञ्जस्पा जीवभेदो भक्तिभिः अपन्तो बीजामिव धान्यागृहः प्रणिजन्ति रोमन्नमीनन्ति वत्सतः सुते अध्वरे अधिवाचामक्रदा क्रीडयोनमातरम् सुदन्ताः विषूमञ्जासु शुकृशो मनीषाम् विवर्तन्ताभद्रायश्चायमानाः भद्रम् नो अपि वातयमनाः ओ हरि ओ तिष्ठ घोरेवशान्तिमिश्राकेण वामहैरो नौ मन्त्रा अनुदिदासजेते मयस्करन् परतरे जनान्ता वाचाक्रेण वातवाहम्राक्रामिषमुषसामग्रेव पुरोरवः पुनरस्तम्बरे हिरुरापरावातयिवाहमस्मि ेषुधेरसना घोषाः स दशारम्भीः अवीरेक्रतौ विदविद्युतर्णो रानमायम् चीलयम् तधुनायः सावसुदधी स्वसूराय वयपुषो यदिवश्यन्ति गृहात् हस्तम् मनक्षेयस्मिन् चाकन्दिपानक्तम् स्वधिता वैतसेन स्मान्न श्रधयो वैतसेनो तस्मे व्याख्यै वृणासि पुरोरवो नो चेतमायम् राजा मे वीरतन्वासीः यासो योनिश्रेणिः सुन्नवाभिर्हृदे चक्षुर्न ग्रन्थिनी चरण्यः ताञ्जयो ऋणयो न सस्रश्रुये गावो न धेनवो न मन्त समस्मिन् जायमान आसदग्ना उदेवावद्धम् नद्या असुरोताः महेयत्वा पुरोरपोरणायावद्धयम् दस्युहत्याय देवाः सहदेष्वत्कममानुषेषुमानोषो ऋषेवे अवस्मवत्सरसम् तेन भुज्यस्ताहत्र सन्दधस्मृतोनाः स्वाः यदा सुमत्तो अमृतासमिश्रत्साम् शोणेभिक्रतो भिन्नभृन्दे ता आतयो न धन्वशृम्भदस्वाश्वासो न क्रीडयो दन्दसानाः विद्युन्नरापदम् तीरविद्योद्भरम् तीमेऽप्याराम्यानि जनिष्टो अपोनर्यसुजादप्रोर्वसीतिगत दीर्घमायोः यज्ञीरयित्वा गोवीत्वा भवोजाः असासन्वा विदुषी तस्मिन्नहन्नमाश्रेणोक्तिमुदासि पितरम् जातयिच्छा चक्रमाश्रोपर्तयद्विजानम् को सम्पाधी समानसापि योजधयदग्निस्वसूरेषुदीरयत् प्रतिब्रवाणि भक्तया ते अश्रुचक्रम् न क्रम् दधाध्ये शिवायै नवायत्ते अस्मे परेग्रस्तम् नहि मोरमापाः सुदेवो अद्य प्रपदेदनावृत्परावतम् परमान् गन्धमाभु अधासयीधनिर्वेदे रूपस्थे धैनमृकारभसासो अद्युः पुरोरवो मा प्रपत्तो मात्वा विकासो अशीवासमुक्षणन् न वै श्रयणानि सख्यानि सन्ति कालाभृतानाम् हृदयान्येताद्विरूपा च सम्मर्जेष्वव सम्राज्ञेश्वरधस्तरस्रः हृदस्य स्तोरम् सकलन्न आस्माम् ता देवे सन्ता नृपाणाचरामि अन्तरिक्षप्रादोऽभिमानीमुपशिक्षाम्युर्वधीम् वसिष्ठः उपत्वा राजस्तु कृतस्य निवत्तस्वहृदायम् लप्यते मे युजित्वा देवाजिमाहुरैलकथे मे तद्भवसि मृत्युबन्धुः प्रजाते देवान् भ्रमिराय जाति स्वर्गभूत्वमपि मादरासे प्रदे महे विदधे संसृहरी प्रदे भन्वे भनुरोहरमदनम् गृहन्नयो हरिभिश्चात्मा विसन्तु हरिवत्पथम् गिराः हरिम् भियोनिमभिजे समस्वरन्भिन्वन्तो हरी दिव्याम् यथा सदाः ఆయం భృణంతి గరీభిర్ణదేన భయింద్రాయ దూషం హరీభంతమచ్చర సోజ్రవజ్రో హరితోజాయసో హరిర్నికా మోహరిరాగభస్తో యుమ్నీశోసి ప్రో హరిమాన్యసాయ కయింద్రే నిరూపా హరితామిమిక్షిరే ేతురీధాజిహర్యోజ్రో హరితో నరం సుదరహిం హరీ ప్రోజాయత సహస్రశోకా అభవద్ధరిం భర సంతమహర్యథా ఉపస్థుత పూర్వేభిరింద్ర హరికేసయజ్వభిః త్వం హర్యసి తమ విశ్వముక్త్యా అమరాభిరాధో హర్యాదహర్యతం ృణం మందిహం సోమ్యం మధయింద్రం రథే వహతో హర్యదా హరీ పురోణ్యస్మై సమానాని హర్యదయింద్రాజసో మాహరాజో దధన్విరే అరంగామాజహరాజో దధన్విరే స్థిరాజహిన్వన్వరాజో హరీ తురా అర్వద్భిర్జో హరిభిర్జో రమీయ దేదో అస్య కామం హరీ వందమానసే హరిష్దారుర్హరికేశాజతస్తు రశ్మేయేజో హరిపాపవర్ధన అర్వద్భిర్జో హరిభిర్వాదినీవ సురది విశ్వాదురితా పారిషద్ధరీ సురే భయస్ హరిణి విభేదస్య ప్రేవాజాజ హరిణీత విధ్వద ప్రయత్ మదే మర్మృగద్ధరీ పీత్వా మదస్య హర్యతస్యాంధద ఉదత్మదత్మహర్యదస్య పశ్యోరజోనవాధం హరీవాంగజిక్రదత్ మహేషిద్ధిహర్యలోజసా బృహద్వలోదధిహర్యదస్థిరా ఆరోదసీ హర్యమాణో మహిత్వా హర్యం హర్యసి మన్మను ప్రియా నమస్కారంగో రావిష్కృధిహరాజే సూర్యాయ ఆత్మా హర్యంతం ప్రయుజోదనాహం తు హరీషి ప్రమింద్ర శివాజథా ప్రతిభృతస్య మధ్వో హర్యన్ యజ్ఞం సమోదేశోనిం పూర్వే రామ్ హరివసుదా రామసో ఇదం సవరం కేవలం తే మధుమంతమింద్రేణ స్వా ఓ